ताभ्याम सुम्बाय साख्याताम सादि वसु मनोहराम काव्यास्ते स्त्री महाराज पाशयन्ति हिमाचलम नैव ताद्र क्वचित् रूपम तृष्टं केन सिदुत्तमं न्यायतां काव्यसौ देवी गृह्यतां च सुरेश्वर स्त्रीरत्नमधिशार्वङ्की द्योतयन्ति दिशद्विषा साधुदिष्टादि दैत्येन्द्र था भवान् द्रष्टुमर्हति यानि रत्नानि मनयो गजाश्वातीनि वै प्रभो त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ऐरावत समानीतो गजरत्नं पुरन्दराद् पारिजात तरुच्छायं तदैवोच्चैश्रवाहयः विमानं हंस संयुक्तं मेदत्तिष्ठदितेऽङ्गणे रत्नमूदमिहानीतं यदासीत् वेदसोद्भुतं नितिरेष महापद्म समानीतो धनुश्वरात् किञ्जल्किनीं तदौ चाप्ते मालानमलान पङ्कजां छत्रं ते वारुणं केः काञ्चनस्रावितिष्ठति तदायं स्यन्धनवरों यः पुरासीत् प्रजापते मृत्योरुद्ग्रान्तिता नाम शक्तिरीशत्वया हृता पाशसलिलराज्यस्य प्रादुस्तव परिग्रहे निशुम्भस्याप्तिजादाच्च समस्ता रत्नजातयः वह्निरवितौ दुभ्यम् अग्निशौशेषवाससी एवं दैत्येन्द्ररत्नानि समस्तान्याहृतानि ते स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते।